सविता पश्चात्तात् सविता पुरस्तात् सवितोत्तरात्तात् सविता धरात्तात् सविता नः सुवतु सर्वदा किं सविता नो रासतां दीर्घमायुः शतं जीव सरदो वर्धमानः शतं हे मन्तान् शतमुपसन्तान् शतमिन्द्राग्नी सविता बृहस्पतिं शतायुषा हविषेमं पुनत्तुः दक्षिणावतामिदिमानि चित्रा दक्षिणावतान् दिवि सूर्या आसः दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्तप्रतिरन्त आयुः सहस्राक्षेण शतशारदेन शतायुषा भविषाः आर्षमेनम् शतं यथेमं शरधूनयातिन्द्रो विश्वस्य दुरितस्य पारम्
अथ चतुर्वेदोक्त आशीर्वचनम् देवदेवोत्तमदेवता सार्वभौमा अखिलाण्डकोटि ब्रह्माण्डनायक ऋषिगणवन्द्य सच्चिदानन्दात्मन् ऋग्वेदप्रिय ऋग्वेदसेवाम् अवधारय
जुजुर्वान्दसमे युगे अपामर्थ्यतीयां ब्रह्मा भवति सारथिः अस्य मद्भक्तिवतमादयध्वन्तृप्तायाः तदतिभित्ते भयानि सविता पश्चात्तात् सविता पुरस्तात् सवितोत्तरात्तात् सविता धरात्तात् सविता नः सुवतु सर्वदा किं सविता नो रासतां दीर्घमायुः शतं जीव सरदो वर्धमानः शतं हे मन्तान् शतमुपसन्तान् दक्षिणावतामिदिमानि चित्रा दक्षिणावतान् दिवि सूर्या आसः दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्तप्रतिरन्त आयुः शतं यथेमं शरधूनयातिन्द्रो विश्वस्य दुरितस्य पारम्